श्रीवराहकवचम् आद्यं रङ्गमिति प्रोक्तं विमानं रङ्गसंहितं श्रीमुष्णं वेङ्कटाद्रिं च सालग्रामं च नैमिषं तोताद्रिं पुष्करं चैव नरनारायणाश्रमम् अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्तामहीतले श्रीसूत उवाच श्रीरुद्रमुखनिर्णीतमुरारिगुणसत्कथा सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् श्रीपार्वती उवाच श्रीमुष्णेशस्य महात्म्यं वराहस्य महात्मनः श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते श्रोतुं तद्धेव महात्म्यं तस्माद्वर्णय मे पुनः श्रीशङ्कर उवाच शृणु देवी प्रवक्ष्यामि श्रीमुष्णेशस्य वैभवम् यस्य श्रवणमात्रेण महापापैः प्रमुच्यते सर्वेषामेव तीर्थानां तीर्थराजोऽभिधीयते नित्यपुष्करिणी नाम्नि श्रीमुष्णेया च वर्तते जाताश्रमापः पुण्यावराहश्रमवारिणा विष्णोरङ्गुष्टसंस्पर्शात् पुण्यदा खलु जाह्नवी विष्णोः सर्वाङ्गसम्भूता नित्यपुष्करिणी शुभा महानदी सहस्रेण नित्यदा सङ्गता शुभा सकृत्नात्वा विमुक्ताघः सद्यो याति हरेः पदम् तस्याग्नेयभागे तु अश्वत्थच्छाययोदके स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् दृष्ट्या श्वेतवराहं च मासमेकं नयेद्यति कालमृत्युं विनिश्चित्य श्रिया परमायायुतः आधिव्याधिविनिर्मुक्तो ग्रहपीडाविवज्जितः भुक्त्वा भोगाननेकांश्च मोक्षमन्ते वज्रे ध्रुवम् अश्वत्थमूलेर्कवारे नित्यपुष्करिणीतटे वराहकवचं जप्त्वा शतवारं जितेन्द्रियः क्षयापस्मारकुष्ठ्याध्यैः महारोगैः प्रमुच्यते वराहकवचं यस्तु प्रत्यहं पठते यदि शत्रुपीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् लिखित्वा धारयेत्यस्तु बाहुमूले गलेऽथवा भूतप्रेतपिशाचाद्याः यक्षगन्धर्वराक्षसाः शत्रवो घोरकर्माणो ये चान्ये विषजन्तवः नष्टदर्पा विनश्यन्ति विद्रवन्ति दिशो दशः। श्रीपार्वती उवाच तत्ब्रूहि कवचं मह्यं येन गुप्तो जागत्रये संचरेत्येव वन्मत्यः सर्वशत्रुविभीषणः येनाप्नोति च साम्राज्यं तन्मे ब्रूहि सदाशिव। श्रीशङ्कर उवाच शृणु कल्याणी वक्ष्यामि वराह कवचं शुभम् येन गुप्तो लभेन्मत्यो विजयं सर्वसंपदम् अंगरक्षाकरं पुण्यं महापातकनाशनम् सर्वरोगप्रसमनं सर्वदुर्ग्रहणाशनम् विषाभिचारकृत्यादि शत्रुपीडानिवारणम् नोक्तं कस्यापि पूर्वं हि गोप्याद् गोप्यतरं यतः वराहेण पुरा प्रोक्तं मह्यं च परमेष्ठिने युद्धेषु जयदं देवि शत्रुपीडानिवारणम् वराह कवचात् गुप्तो नाशुभं लभते नरः वराह कवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः छन्दोनुष्टुप् तथा देवो वराहो भूपरिग्रहः प्रक्षाल्य पादौ पाणी च सम्यगाचम्यवारिणा कृतस्वाङ्गा करन्यासः सपवित्र उदं मुखः ॐ भूर्भवः सुवरिति नमो भूपतयेऽपि च नमो भगवते पश्चात्वराहाय नमस्तथा एवं षडङ्गं न्यासं च न्यसेदङ्गुलिशुक्रमात् नमः श्वेतपराहाय महाकोलाय भूपते यज्ञाङ्गाय शुभाङ्गाय सर्वज्ञाय परात्मने श्रवतुण्डाय धीराय परब्रह्मस्वरूपिणे वक्रदंष्ट्राय नित्याय नमों तैर्नामभिक्रमात् अङ्गुलीषु न्यसेत्वान् करपृष्ठतलेष्यपि ध्यात्वा श्वेतवराहं च पश्चान्मन्त्रमुदीरयेत् ध्यानम् ॐ श्वेतं वराहपुरुषं क्षितिमुत्तरस्तम् शृङ्गारि सर्ववरदाभययुक्तबाहुम् ध्यायेन्निजैश्च तनुभिः सकलैरुपेतम् पूर्णं विभुं सकलवाञ्छितसिद्धयेजम् कवचम् वराहः पूर्वतः पातु दक्षिणे दण्डकान्तकः हिरण्याक्षहरः पातु पश्चिमे गदयायुतः उत्तरे भूमिहृत् पातु अधस्ताद्वायुवाहनः ऊर्ध्वं पातु हृषीकेशो दिग्विदिक्षु गदाधरः प्रातः पातु प्रजानाथः कल्पकृत्सङ्गमेव तु मध्याह्ने वज्रकेशस्तु सायाह्ने सर्वपूजितः प्रदोषे पातु पद्माक्षो रात्रौ राजीवलोचनः निशीन्द्रगर्वः पातु पातुषः परमेश्वरः अटव्यामग्रजः पातु गमनगरुडासनः स्थले पातु महातेजः जले पात्ववनीपतिः गृहे पातु गृहाध्यक्षः पद्मनाभः पुरोवतु झिल्लिका वरदः पातु स्वग्रामे करुणाकरः रणाग्रे दैत्यः पातु विषमे पातु चक्रभृत् रोगेषु वैद्यराजस्तु कोलो व्याधिषु रक्षतु तापत्रयात्तपोमूर्तिः कर्मपाशाश्च विश्वकृत् क्लेशकालेषु सर्वेषु पातु पद्मापतिर्विभुः हिरण्यगर्भसंस्तुत्यः पादौ पातु निरन्तरम् गुल्फौ गुणाकरः पातु जङ्घे पातु जथनः जानू च जयकृत् पातु पातुरु पुरुषोत्तमः रक्ताक्षो जघने पातु कटिं विश्वम्भरोऽवतु पार्श्वे पातु सुराध्यक्षः पातु कुक्षिं परात्परः नाभिं ब्रह्मपिता पातु हृदयं हृदयेश्वरः महादंष्ट्रः स्तनौ पातु कण्ठं पातु विमुक्तिदः प्रभञ्जनपतिर्बाहू करौ कामपितावतु हस्तौ हंसपतिः पातु पातु सर्वाङ्गुलीर्हरिः सर्वाङ्गश्चिबुकं पातु पात्वोष्ठौ कालनेमिः मुखं तु मधुहा पातु दन्तान् दामोदरोऽवतु नासिकामव्ययः पातु नेत्रे सूर्येन्दुलोचनः फालं कर्मफलाध्यक्षः पातु कर्णौ महारथः शेषसायी शिरः पातु केशान् पातु निरामयः सर्वाङ्गं पातु सर्वेशः सदा पातु सतीश्वरः इतीदं कवचं पुण्यं वराहस्य महात्मनः यः पठेत् शृणुयाद्वापि तस्य मृत्युर्विनश्यति तं नमस्यन्ति भूतानि भीताः साञ्जलिपाणयः राजदस्युभयं नास्ति राज्यभ्रंशो न जायते यन्नाम स्मरणात् पीताः भूतवेतालराक्षसाः महारोगाश्च नश्यन्ति सत्यं सत्यं वदाम्यहम् कण्ठे तु कवचं बुद्ध्वा वन्ध्या पुत्रवती भवेत् शत्रुसैन्यक्षयप्राप्तिः दुःखप्रशमनं तथा उत्पातदुर्निमित्तादिसूचितारिष्टनाशनम् ब्रह्मविद्या प्रबोधं च लभते नात्र संशयः धृत्वेदं कवचं पुण्यं मां धाता परवीरः जित्वा तु शाम्बरीं मायां दैत्येन्द्रानवधिष्कणात् कवचेनापृतो भूत्वा देवेन्द्रोऽपि सुरारिः भूम्योपदिष्टकवचधारणान्नरकोऽपि च सर्वावध्यो जयी भूत्वा महतीं कीर्तिमाप्तवान् अश्वत्थमूलेऽर्कवारे नित्यनिष्करिणीतटे वराहकवचं जप्त्वा शतवारं पठेद्यदि अपूर्वराज्या सम्प्राप्तिं नष्टस्य पुनरागमम् लभते नात्र सन्देहः सत्यमेतन्मयोदितम् जप्त्वा वराहमन्त्रं तु लक्षमेकं निरन्तरम् दशांशं तर्पणं होमं पायसेन घृतेन च कुर्विन् त्रिकालसन्ध्यासु कवचेनावृतो यदि भूमण्डलाधिपत्यं च लभते नात्र संशयः इदमुक्तं मया देवी गोपनीयं दुरात्मना वराहकवचं पुण्यं संसारार्णवतारकम् महापातककोटिज्ञं भुक्तिमुक्तिफलप्रदम् वाच्यं पुत्राय शिष्याय सद्वृत्ताय सुधीमते श्रीसूतः इति पत्युर्वचः श्रुत्वा देवी सन्तुष्टमानसा विनायका गुहौ पुत्रौ प्रपेदे द्वौ सुराचितौ कवचस्य प्रभावेन लोकमाता च पार्वती या इदं शृणुयान्नित्यं यो वा पठति नित्यशः समुक्तः सर्वपापेभ्यो विष्णुलोके महीयते इति श्रीवराहकवचं सम्पूर्णम्।